शरीरं सुरूपं यथा वाकलत्रं यशश्चारुचित्रं धनं मेरुतुल्यं गुरोरन्ध्रिपद्मे मनश्चेन लग्नं ततः किं कलत्रं धनं पुत्रपौत्रादि सर्वं गृहं बान्धव सर्वमेतद्धि जातं गुरोरन्ध्रिपद्मे मनश्चेन लग्नं ततः किं षडङ्गादिवेदो मुखे शास्त्रविद्या कवित्वादिगत्यं सुपद्यं करोति गुरोरन्ध्रिपद्मे मनश्चेन लग्नं ततः किं विदेशेषु मान्यः स्वदेशेषु धन्यः सदाचारवृत्ते शु गृहा